गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते सम्मूर्च्छनाभिः उदितस्वरमण्डलाभिः सम्मूर्च्छयन्तमखिलं भुवनान्तराळं त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यः तत्तादृशं कमपि चित्तविमोहमापुः ताः गेहकृत्यनिरताः तनयप्रसक्ताः कान्तोपसेवनपराश्च सरोरुहाक्ष्यः सर्वं विसृज्य मुरळीरवमोहितास्ते कान्तारदेशम् अयि कान्ततनो समेताः काश्चिद्निजाङ्गपरिभूषणं आदधानाः वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः त्वामागताननु तथैव विभूषिताभ्यः तायेव संरुचिरे तव लोचनाय हारं नितम्बभुवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव समागता त्वां हारित्वम् आत्मजघनस्य मुकुन्द तुभ्यं व्यक्तं बभाष इव मुग्धमुखी विशेषात् काचित् कुचे पुनः असज्जितकञ्चुलीका व्यामोहतः परवधूभिः अलक्ष्यमाणा त्वामाययौ निरुपमप्रणयातिभार राज्याभिषेकविधये कलशीधरेव काश्चित् गृहात् किल निरेतुम् अपारयन्त्यः त्वामेव देव हृदये सुदृढं विभाव्य देहं विधूय परचित्सुखरूपमेकं त्वामाविशन् परमिमाः ननु धन्यधन्याः जारात्मना न परमात्मतया स्मरन्त्यः नार्यो गताः परमहंसगतिं क्षणेन तं त्वां प्रकाशपरमात्मतनुं कथञ्चित् चित्ते वहन् अमृतम् अश्रमम् अश्नुवीय अभ्यागताभिः अभितो व्रजसुन्दरीभिः मुग्धस्मितार्द्रवदनः करुणावलोकी निःसीमकान्तिजलधिः त्वमवेक्ष्यमाणः विश्वैकहृद्य हर मे पवनेशरोगान् ॐ तत्सदिति श्रीमन्नारायणीये पञ्चषष्टितमं दशकं समाप्तं श्रीहरये नमः रमारमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।